अपायस्यान्दसोमदायमनीषिणस्वभानस्य प्रजातः यस्मिन्निन्द्रः पृथिवीवावृधानवोको दधे ब्रह्मण्यन्तश्च नराः अस्य मन्दानो मध्वो वज्रहस्तो हिमिन्द्रो अह्नो वृतम् विवृश्चत् प्रयद्वजोनसुसराण्यच्छा प्रजाम् सृजनदीनाम् चक्रामन्त समाहि न इन्द्रो अर्णो अपाम् भैरयदहिहाच्छा समुद्रम् अजरजत्सूर्यम् विरद्गा अग्नान्धाम् वजुनानि साधत् सो अप्रतिलिमन वे ब्रूणीन्द्रो दासद्दासुटे हन्ति भृत्रम् सद्यो यो नृभ्यो अदसायो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ससंहत इन्द्रः सूर्यमा देवो ऋणङ्मत्यायस्तवान् आयद्रयम् गुहत मद्यमस्मै भरतम् संहैत सोदसस्यन् सन्धयः स दिवः साराधये दृष्टमसुषम् कुज मङ्कुत्साय दिवो दासा जनमतिम् जनवेन्द्रः पुरोव्यैरच्छम्बरस्य एवाद इन्द्रो यथा महेमश्रवस्यात्मनायन्दः अस्य मदत्साप्त मादुषाणानमो वधरदेवस्य बीजोः एवाते कृत्समदाः सूरमन्मापस्य मोरभजुना निदक्षुः ब्रह्मण्यन्त इन्द्रतेन बीजयिषमोर्जम् सक्षुजम् सुम्नमः स्युः मूलम् सा ते प्रतिवरम् जनित्रे दूहीयदिन्द्रलक्ष्मीणामघोनी शिक्षा स्तोतृभ्यो माति तद्भगो न बृहद्वदेव विदधे सुवीराः